Then comes chapter 8. Bhagavanaha
tatkin manyase subhute
yah kashchit
kulaputrova
kuladuhitava
imam
trisahasram mahasahasram
lokadhatum
saptaratna
paripurnam kritva
tathagatebhyo
arhadbhyah
samyak sambuddhebhyo
danam dadyat
apinu
sakulaputro
vakuladuhitava
tato nidanam
bahutaram
punyaskandham
prasunuyat
subhutiraha
bahu bhagavan
bahu sugata
sakulaputro
vakuladuhitava
tato nidanam
punyaskandham
prasunuyat
tatkasya heto
yosau bhagavan
punyaskandha
tathagatena bhasita
askandhasa
tathagatena bhasita tasmat tathagato bhasate
punyaskandha iti
bhagavanaha
yascha khalu
punasubhute
kulaputrova
kuladuhitava
imam trisahasram mahasahasram
lokadhatum saptaratna paripurnam kritva
tathagatebhyo
arhadbhyah
samyak sambuddhebhyo
danam dadyat
yascha ito
dharma paryayat
antashah
chatushpadikamapi
gathamudgrihya
parebhyo
vistarena
deshayet
samprakashayet
ayameva tato
nidanam bahutaram
punyaskandham
prasunuyat
अप्रमेयम्
अप्रमेयम्
असंख्येयम्
असंख्येयम्
तत्कस्य हेतु
तत्कस्य हेतु
अतो
अतो
निर्जाता हि
निर्जाता हि
सुभूते
सुभूते
तथागतानां
तथागतानां
अर्हताम्
अर्हताम्
सम्यक् संबुद्धानां
सम्यक् संबुद्धानां
अनुत्तरा
अनुत्तरा
सम्यक् संबोधिः
सम्यक् संबोधिः
अतो
अतो
निर्जाताश्च
निर्जाताश्च
बुद्धा
बुद्धा
भगवन्तः
भगवन्तः
तत्कस्य हेतु
तत्कस्य हेतु
बुद्धधर्मा इति सुभूते
बुद्धधर्मा इति सुभूते
अबुद्धधर्माश्चैव
अबुद्धधर्माश्चैव
ते तथागतेन भाषिता
तथागतेन भाषिता
तेनोच्यन्ते
तेनोच्यन्ते
बुद्धधर्मा इति
बुद्धधर्मा इति